Okay, now we learn the second paragraph from Vrinda Devi Ashtakam by Srila Vishwanath Chakravarti Thakur. You've got the pages, Vrinda Devi Ashtakam? Bimbadaro.
Bimbadaro. Bimbadaro. Bimbadaro.
Dithvara.
Dithvara. Dithvara. Dithvara.
Mandahasya.
Mandahasya. Mandahasya. Mandahasya.
Nasagra.
Nasagra. Nasagra. Nasagra.
Mukta.
Mukta. Mukta. Mukta.
Dyuti.
Dyuti. Dyuti. Dyuti.
Deepitasye.
Deepitasye. Deepitasye. Deepitasye.
Vichitra.
Vichitra. Vichitra. Vichitra.
Ratna.
Ratna. Ratna. Ratna.
Varana.
Varana. Varana. Varana.
Shriyadye.
Shriyadye. Shriyadye. Shriyadye.
Brinde namaste charanaravindam.
Brinde namaste charanaravindam. Brinde namaste charanaravindam. Brinde namaste charanaravindam.
Okay, all of you, any doubt pronunciation? Bimbadaro dhitvara mandahasya.
Bimbadaro dhitvara mandahasya. Bimbadaro dhitvara mandahasya. Bimbadaro dhitvara mandahasya.
Nasagra mukta dhuti dhipitasye.
Nasagra mukta dhuti dhipitasye.
विचित्ररत्नाभरणश्रियाद्ये
विचित्ररत्नाभरणश्रियाद्ये विचित्ररत्नाभरणश्रियाद्ये विचित्ररत्नाभरणश्रियाद्ये
वृन्दे नमस्ते चरणारविन्दम्
वृन्दे नमस्ते चरणारविन्दम् वृन्दे नमस्ते चरणारविन्दम् वृन्दे नमस्ते चरणारविन्दम्
बिम्बादरो देत्वरमन्दहस्य
बिम्बादरो देत्वरमन्दहस्य बिम्बादरो दीपरमन्दस्य बिम्बादरो दीपरमन्दस्य
नासाग्रमुक्ता द्युतिदीपितस्ये
नासाग्रमुक्ता द्युतिदीपितस्ये नासाग्रमुक्ता द्युतिदीपितस्ये नासाग्रमुक्ता द्युतिदीपितस्ये
विचित्ररत्नाभरण श्रियाद्ये
विचित्ररत्नाभरण श्रियाद्ये विचित्ररत्नाभरण श्रियाद्ये विचित्ररत्नाभरण श्रियाद्ये
वृन्दे नमस्ते चरणारविन्दम्
वृन्दे नमस्ते चरणारविन्दम् वृन्दे
I'll recite the whole paragraph. Bimbadaro dhitvara mandahasya nasagra mukta dyuti dhipitasye vichitra ratna bharana shriyade brinde namaste charanaravindam.
Bimbadaro dhitvara mandahasya nasagra mukta dyuti dhipitasye विचित्ररत्नाभरणश्रियाद्ये वृन्दे नमस्ते चरणारविन्दम्
वन्स् मोर्
बिम्बादरो दीपरमन्दस्य नासाग्रमुक्ता द्युतिदीपितस्य विचित्ररत्नाभरणश्रियाद्ये वृन्दे नमस्ते चरणारविन्दम्
ओ वृन्दा देवी
Govinda Devi,
I offer my
respectful
obeisances. to your lotus feet.
Your face is
illuminated
by the
splendor of the pearl,
decorating
the tip of your nose,
and by the
extraordinary
gentle smile
on the two bimba fruits
which are your lips.
You are enriched
by the beauty
of the amazing
and colorful jewels.
And ornaments you wear. So here the beautiful lotus face of Srimati Brinda Devi is described. Her lips are so red, you know, there is a fruit called bimba fruit. It is very red in color. So her lips are compared to the... Yeah, it is so... her lips are compared to that. And her... the pearl that is decorating her nose, everything is described in the Devi's, that is described in the Srinda Devi Ashtakam.